इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका ऋचा झा. अथ वार्ताः. भारत इण्डोनेशिया रणनीतिक सहभागित्वस्य सुदृढाह्वानम् कुर्वन् प्रधानमन्त्री मोदी अवदत् यत् एतत् न केवलम् द्वयोः देशयोः समृद्धौ अपितु क्षेत्रीय वैश्विक शान्ति स्थिरतासु च योगदानं प्रदास्यति इति. जकार्ता नगरे इण्डोनेशिया देशस्य संसदं सम्बोधयन् श्रीमोदी अवदत् यत् भारतं विकासस्य मार्गम् अनुसरति न तु विस्तारवादस्य.
भारत विस्तारवाद नहीं विकासवाद की नीति पर चलता है और इसलिए हम भारत में कहते हैं सबका साथ सबका विकास. आज मैं यही मंत्र यही भावना लेकर इंडोनेशिया के आप सभी सांसद सदस्यों के बीच आया हूं. भारत और इंडोनेशिया के बीच समुद्र ताजा भविष्य का केंद्र है.
श्री मोदी द्वयोः देशयोः जनानां लाभाय यूपीआई आर्टिफिशियल इंटेलिजेंस स्टार्टअप इत्येतान् शिक्षां नवानवेषणं च समेत्य आंकिकीय सार्वजनिक अवसंरचनायां सहयोगस्य वर्धनाय अपि बलं प्रदत्तवान्. तत्पूर्वं प्रधानमन्त्री मोदी जकार्ता नगरे इण्डोनेशिया देशस्य राष्ट्रपतिना प्रबोवो सुबियान्तो इत्यनेन सह प्रतिनिधिमण्डलस्तरीय वार्तां कृतवान्. उभय नेतृभ्याम् परस्पर हितस्य क्षेत्रेषु सहयोगं वर्धयितुं ज्ञापनपत्राणाम् आदान प्रदानमपि कृतम्. श्रीमोदी वर्याय एकस्मिन् समारोहे राष्ट्रपतिना प्रबोवो सुबियान्तो इत्यनेन इण्डोनेशिया गणराज्यस्य सर्वोच्च नागरिक पुरस्कारं बिन्ताङ्ग आदिपूर्ण इति प्रदत्ता. शिलातैल प्राकृतिक वातेन्धन मन्त्री हरदीप सिंह पुरी अवदत् यत् यदि अन्ताराष्ट्रिय स्तरे अशोधित तैलस्य मूल्यानि स्थिरानि उत वा न्यूनानि भवन्ति तर्हि आन्तरिक पेट्रोल डीजल इत्येतयोः मूल्यानि सकारात्मक दिशि प्रवर्धन्ते इति अपेक्षा अस्ति. मन्त्री विश्वासं प्रकटितवान् यत् उपभोक्तृभ्यः दृक्पथः अनुकूलः एव अस्ति यतः वैश्विक तैल वातेन्धनापूर्तिः निरन्तरं विस्तृता अस्ति इति. नवदिल्ल्याम् अस्य वर्षस्य विकसित भारत शिखर सम्मेलनं सम्बोधयन् श्रीपुरी अवदत् यत् भारतेन अद्यतनीयेषु दशकेषु वैश्विकोर्जा व्यवधानानां कूटनीतिक संवादस्य समायोजित नीतिगत हस्तक्षेपस्य देशीयोत्पादन वर्धनस्य आयातस्य विविधीकरणस्य च संयोजन माध्यमेन सफलतया समाधानम् अकरोत्. विदेशमन्त्री डॉ एस जयशंकर अवदत् यत् भारत बहरीन सहभागित्वं निरन्तरं गहनं भवति. डॉ जयशंकर ह्यः बहरीन देशस्य द्विदिवसीय यात्रायाः समापनम् अकरोत्. यात्रावधौ डॉ जयशंकर बहरीन देशस्य राज्ञा हमद बिन ईसा अल खलीफा इत्यनेन सह मेलनं कृतवान्. असौ उपप्रधानमन्त्रिणा शेख खालिद बिन अब्दुल्ला अल खलीफा इत्यनेन सह अपि मेलनं कृतवान्. एतासु सभासु विदेशमन्त्री राष्ट्रपति पदासीना द्रौपदी मुर्मू प्रधानमन्त्री नरेन्द्र मोदी चेत्येतयोः पक्षतः शुभकामनाः अपि प्रेषितवान्. प्रधानमन्त्री कार्यालयेन विविध क्षेत्रेषु एल नीनो इत्यस्य संभाव्य प्रभावानां सज्जतोपायानां च समीक्षार्थं प्रधानमन्त्री कार्यालये उच्चस्तरीय समीक्षा सभा आयोजिता. प्रधानमन्त्रिणः प्रधान सचिवस्य डॉ पीके मिश्र वर्यस्य अध्यक्षतायां सेवातीर्थे ह्यः इयं सभा आयोजिता. अस्यां सभायां पञ्चदशतोप्यधिकानां मन्त्रालयानां सचिवाः वरिष्ठाधिकारिणः च उपस्थिताः आसन्. फुटबॉल क्रीडायां स्विट्जरलैंड देशः वैंकूवर नगरे पेनल्टी शूट आउट इत्येतस्यां क्रीडायां कोलम्बिया देशं 4-3 इत्यांकतारालेन पराजित्य 54-29 वर्षात् प्रथमवारं फीफा विश्वकप क्रीडायाः प्रागुपान्त्यचक्रे प्रविष्टवान् इति वार्ताः.